നമസ്സർവേഭ്യഃ. അദ്യ കൃദന്തവർഗേ ദ്വാവിംശഃ പാഠഃ, സെപ്റ്റംബർ മാസസ്യ ത്രയോവിംശഃ ദിനാങ്കഃ. അദ്യ വയം തവതു പ്രത്യയസ്യ പരിചയം പ്രാപ്നുമഃ. യോന്തഃ പ്രവിശ്യ മമവാചമിമാം പ്രസുപ്താം സഞ്ജീവയത്യഖില ശക്തിധരസ്വധാംനാ അന്യാം സഹസ്തചരണശ്രവണത്വഗാദീന് പ്രാണാന് നമോ ഭഗവതേ പുരുഷായ തുഭ്യം. ഗുരുരേവ ഗതിർഗുരുമേവ ഭജേ ഗുരുണൈവ സഹാസ്മി നമോ ഗുരവേ. ന ഗുരോഃ പരമം ശിശുരസ്മി ഗുരോർമതിരസ്തി ഗുരോ മമ പാഹി ഗുരോ. അഷ്ടൌ പ്രത്യയാഃ അസ്മാഭിഃ ഏതാവതാ അധീതാഃ. തേഷാം പുനരാവർത്തനം കൃത്വാ നൂതനം പ്രത്യയം പശ്യാമഃ. കൃദന്തഃ, കൃദന്താനാം അധ്യയനാർത്ഥം പ്രവൃത്താഃ വയം. കൃദന്തഃ നാമ കഃ ഇതി ചേത്, ധാതോഃ കൃത് പ്രത്യയസ്യ യോജനേന നിഷ്പന്നഃ ശബ്ദഃ കൃദന്തഃ ഇതി ഉച്യതേ. കൃത് ഇതി പാണിന്യാ കൃത കാചിത് സംജ്ഞാ. കൃത് ഇതി വർഗേ പ്രായഃ ശതോത്തരം ചത്വാരിംശത് പ്രത്യയാഃ സന്തി. ഭിന്നേഷു ഭിന്നേഷു അർത്ഥേഷു ധാതുഭ്യഃ വിഹിതാഃ ഏതേ പ്രത്യയാഃ. കൃദതിങ് ഇതി സൂത്രം. അതഃ തിങന്തം വിഹായ ധാതോഃ വിഹിതഃ പ്രായഃ സർവോപി പ്രത്യയഃ. There are exceptions, but the majority of the pratyayas on dhatus which are not ting will happen to be krit pratyayas. Okay. Eteshu pratyayeshu samanya pratyayah kechana bhavanti ye sarvebhyah dhatubhyah samanyataya vidhiyante. Yatha asmabhihi adhiyamanah sarvepi lyut pratyayah സർവേഭ്യഃ ധാതുഭ്യഃ ഭാവാർത്ഥേ ഭവതി. ഏവം അനീയർ പ്രത്യയഃ സർവേഭ്യഃ ധാതുഭ്യഃ വിദ്യർത്ഥേ ഭവതി. ഇത്യേവം ഏതേ സാമാന്യ പ്രത്യയഃ തേ കേചന സന്തി. സോ ദ നമ്പർ ഓഫ് സാമാന്യ പ്രത്യയസ് ഈസ് ഫെയർലി ലെസ്, ഇറ്റ്സ് അറൌണ്ട് 15 പ്രത്യയസ്. വിശേഷ പ്രത്യയഃ ഭവന്തി യേ വിശിഷ്ട ധാതുഭ്യഃ വിഹിതാഃ. So they will be added only to specific dhatus. Yatha vacho gminihi iti sutram asti. Gmini iti pratyayah, akshamyatam saha tadhita pratyayah. Atrapi asti. Erach iti asti. Ach iti pratyayah asti. Ach iti pratyayah kevalam ikarante bhyaha dhatu bhyaha eva bhavati. Anya bhyaha dhatu bhyaha na bhavati. ഏവം വിശിഷ്ട പ്രത്യയാഃ സന്തി സാമാന്യ പ്രത്യയാഃ അപി സന്തി. അസ്മാഭിഃ അസ്മിൻ വർഗേ സാമാന്യ പ്രത്യയാഃ ഏവ അധീയന്തെ. സോ വി വിൽ ബി കോൺസെൻട്രേറ്റിംഗ് ഓൺലി ഓൺ ദ സാമാന്യ പ്രത്യയസ്, ദറ്റ് ഈസ് ദോസ് വിച്ച് ആർ ആഡഡ് ഇൻ ജനറൽ ടു ഓൾ ധാതുസ്. യദാ കോപി കൃത് പ്രത്യയഃ ഭവതി തത്ര ഏതേ അംശാഃ അസ്മാഭിഃ ജ്ഞാതവ്യാഃ ഭവന്തി. കഃ പ്രത്യയഃ, തസ്യ അർത്ഥഃ കഃ. കൃദന്ത രൂപാണി അർത്ഥാത് ധാതോഃ തസ്യ പ്രത്യയസ്യ യോജനേ കീദൃശാനി രൂപാണി ഭവന്തി. സുബന്ത രൂപാണി, ഏതത് സർവദാ സ്മർത്തവ്യം, കൃദന്താനാം സ്വാതന്ത്ര്യേണ പ്രയോഗഃ ന ഭവതി. കൃദന്തം പ്രാതിപദികം ഭവതി, തസ്മാത് സുപ്രത്യയസ്യ യോജനം കൃത്വാ സുബന്തരൂപേണൈവ അസ്മാഭിഃ ഉപയുജ്യതെ. അതഃ കൃദന്താഃ സർവേപി സുബന്താഃ സുബന്തരൂപാണി കഥം ഭവന്തി. യഥാ യദി അനീയപ്രത്യയഃ തർഹി അകാരാന്തഃ ഭവതി, യദി തൃച് പ്രത്യയഃ തർഹി ഋകാരാന്തഃ ഭവതി. ഇത്യേവം സുബന്തസ്യ രൂപാണി കഥം ഭവന്തി ഇത്യപി ജ്ഞാതവ്യം. പ്രയോഗ നിയമാഃ, यदा कश्चित् प्रदन्तशब्दः प्रयुज्यते तेन सह कर्तृपदं कस्यां विभक्तौ भवति कर्मपदं कस्यां विभक्तौ भवति इत्येवं प्रयोगनियमाः ज्ञातव्याः प्रत्ययः तस्य अर्थः कृदन्तस्य रूपाणि पुनः सुवन्तरूपाणि प्रयोगनियमाः इत्येतत् सर्वं ज्ञायते चेत् सुलभतया वाक्येषु एतेषां कृदन्तानां प्रयोगं कर्तुं शक्नुमः तर्हि इदानीं ये अष्टप्रत्ययाः अधीताः तेषां विषये एतेषाम् अंशानां पञ्चानामपि अंशानां पुनःस्मरणं कुर्मः सो वी विल् रीकेप् वी हेव् स्टडीड् आल् दीस् फार् आल् द प्रत्ययस् सो फार् सो वी विल् क्विक्ली रीकेप् द मेजर् पायिण्ट्स् अबौट् ईच् प्रत्यय बिफोर् वी मूव् आन् ओके सो प्रथमः प्रत्ययः अस्माभिः अधीतः आसीत् ल्युट् इति प्रत्ययः प्रयोगेषु तु अन इति श्रूयते अयं भावार्थकः प्रत्ययः अर्थात् क्रियां बोधयति पठन लेखन क्रीडन भोजन करण स्मरण इत्यादीनि ल्युडन्तरूपाणि कृदन्तरूपाणि कृदन्तस्य सिद्धौ के के अंशाः ज्ञातव्याः गुणः कस्य कस्य धातोः गुणः भवति इगन्तानाम् इ उ ऋल् इत्येते वर्णाः अन्ते सन्ति चेत् गुणः भवति यथा जि जयनम् नी नयनम् श्रु श्रवणम् भू भवनम् कृ करणम् तृ तरणम् इत्येवं गुणः भवति इकारान्तानामेकारः उकारान्तानामोकारः ऋकारान्तानाम् अर् इत्येवं गुणः युट्प्रत्यये परे भवति नत्वस्यापि प्रसङ्गः अस्ति प्रत्यये नकारः अस्ति अतः यत्र निमित्तं तत्र णत्वं भवितुम् अर्हति निमित्तं स्मरन्ति वा नत्वस्य कारणम् अथवा निमित्तं किं भवति कदा भवति णत्वम् Ramapriya, you have to unmute yourself.
Aam bhagini, repaha, rikaraha, shakaraha vasti chet natvam bhavati. Madhye kavargaha, pavargaha, ha, ya, va, ra, iti varnaha santi chet api. Natvam bhavati.
Samik. So nakarat. पूर्वं रेफः ऋकारः अथवा षकारः मूर्धन्यषकारः सः अस्ति चेत् णत्वस्य सम्भवः दट् इस् द फस्ट् क्रैटीरियन् फार् णत्वम् सो प्रिसीडिङ्ग् द नकार यु शुड् हेव् वन् आफ् दीस् त्री लेटर्स् सो इफ् दीस् त्री लेटर्स् आर् इमीडियट्लि प्रिसीडिङ्ग् द नकार यु विल् हेव् णत्व यदि मध्ये अन्ये वर्णाः सन्ति यथा करण इत्यस्ति अत्र रेफः अस्ति नकारः तयोः मध्ये अकारः अस्ति स्वरवर्णाः न विस्मर्तव्याः वि केनाट् फर्गेट् इट् अकारः अस्ति किन्तु केवलं स्वरः अस्ति चेत् चिन्ता नास्ति भवति णत्वं भवति अन्ये कानि अन्ये वर्णाः मध्ये सन्ति चेत् तत्र कानिचन व्यञ्जनानि कवर्गस्य व्यञ्जनानि पवर्गस्य व्यञ्जनानि हय वर एते वर्णाः मध्ये सन्ति चेदपि णत्वं भवति यथा क्षेपणम् इत्यस्ति तत्र पकारः अस्ति क ष षकारः अस्ति ततः पकारः अस्ति अनन्तरं नकारः तत्रापि णत्वं भवति सो इफ् नकार इस् इमीडियट्लि प्रिसीडेड् बै रेफा ऋकार और शकार और इफ द इंटरवीनिंग लेटर्स बिलोंग टू कवर्ग पवर्ग और हयवर देन वी विल हैव णत्व नो चेत णत्वम न भवति यथा दर्शनम इत्यस्ति द ऋ इत्यत्र रेफः अस्ति किन्तु ततः शकारः अस्ति So since it is a vyanjana which does not belong to the letters which were mentioned, there is no natva. Okay, so natva niyamaha smartavyaha. To use lyut properly, we should remember the guna rules and the natva rules. Lyudantaha shabdaha akarantaha napumsakalingaha bhavati. Kriyam bodhayati sarvada napumsakalingatvameva akarantatvamapi. So pathanam, lekhanam, kridanam, bhojanam ityadini rupani bhavanti. Sarveshu vataneshu sarvasu vibhaktishu rupam bhavati. Gamanam gamane gamanani ityevam phalashabdavat rupani bhavanti. Prayogasya kahaniyamaha. Kartrupadam athava karmapadam shashti vibhaktau bhavati. Yatha krishnasya lekhanam. So writing of Krishna. Atra krishnaha karta. Evam chitrasya lekhanam ityukte. Chitram lekhane karma. Okay, so the writing of a picture. So in that case you are writing a picture. So the picture is the object of writing. Whereas when I say krishnasya lekhanam, Krishna is not being written. He is writing. Okay, so he is the karta. So both karta and karma will be in shashti vibhakti for lyut. Okay. So evam prayogasya niyamaha api adhitaha. Dvitiyaha pratyayaha bhavati aniyar pratyayaha. Prayoge aniya iti shruyate. Okay, so before this there is one question which I deliberately skipped, but since somebody asked, I'll tell it. So what happens when we have both karta and karma in the same sentence? I can say individually you have shashti. If you have both karta and karma in the same sentence, that is, say Krishna is writing a picture, we have to say that, then only the karma will get shashti, the karta will be in tritiya. Krishnena chitrasya lekhanam. So it will not be Krishnasya chitrasya lekhanam, Krishnena chitrasya lekhanam. So if both of them are present in the same sentence, okay, so Ramena Ravanasya Hananam, okay, and so on. So if it is there, the Kartrapada will get Shashti, the Kartrapada will get Tritiya and the Karmapada will get Shashti. Okay. So if you are writing a picture of Krishna, then it will be say Krishnasya Chitram, I mean Krishnasya Chitranam, whatever. So, is it, say, if you are writing, say, Krishnasya Lekhanam, is Krishna intended as the subject or as the object? Do you mean to say that Krishna is writing or you are writing Krishna? So, that will depend on the context, the prasanga. You cannot tell it just by looking at the sentence. Okay, it's only depending on the meaning. Say, if I am saying Chitrasya Lekhanam, obviously a Chitra cannot write itself. So, it cannot be the Karta. So, it is karma. But in cases where it is possible, then you will have to depend on the context to know whether it is the karta or the karma. Okay. So, we will move ahead. Dvitiyaha pratyayaha asit aniyar pratyayaha rupe aniya iti shruyate. Ayam karmarthakaha pratyayaha. So, it is a karmani pratyaya. Vibhinnaha arthaha bhavanti. So it can indicate vidhihi, an order, prarthana, a request, arhata. So the it is say deserves to be done. Say for example, kretavya, krayaniya shatika. So sari which is worth buying ityarthe, athava shaktihi which is possible to be done. So, all these senses are conveyed by aniyar. Again, based on the context, different senses are known. So, ete sarvevi pratyayasya arthaha. Pathaniya, lekhaniya, karaniya, shravaniya, ityadini, kridanta rupani bhavanti. Kridanta se rupo punahatrapi, gunaha, natvam cha smartavyam. You should remember that the forms of aniyar are always completely similar to that of lyut. So if you have ana, it is lyut. If you have aniya, it is aniyar. Okay. So otherwise, they are completely similar to each other. Okay. So yadi refaha shakaraha vikaro vasti tarhi natvam bhavitum arhati jnatavyam. Aniyar pratyayasya tu trishu lingeshu api rupani bhavanti. Okay. Pullinge akarantam pathaniyaha, strilinge akarantam pathaniya, napumsakalinge punaha akarantam pathaniyam ityevam trishu lingeshu api rupani bhavanti. Karma padasya visheshanatvena prayogaha bhavati. Very very important. Pathaha pathaniyaha, Gita pathaniya, Ramayanam pathaniyam. So the linga, the vibhakti, the vachana, everything will change depending on the karma pada. Okay, so it is a karmani prayoga because the pratyaya indicates the karma. Karmarthakaha pratyayaha. So samanya prayoga yatra aniyar pratyaya upayujyate tatra karma padam prathama vibhaktau bhavati. This is a typing error. I'll correct it right now. This is it's very important. Karma padam prathama vibhaktau bhavati, kartru padam tu dvitiya vibhaktau athava shashti vibhaktau bhavati. Okay. Karma padam prathama vibhaktau bhavati. So maya pathaha pathaniyaha. Kartra padam tu tritiya athava shashti. Both vibhaktis are correct. So you can either say maya pathaha pathaniyaha or mama pathaha pathaniyaha. Kartrarthe eva vibhakti dvayam api prayoktum shakyate. Okay. But the karma pada has to be in the prathama vibhakti. So, maya patham pataniyam is wrong. Maya pathaha pataniyaha. Tritiyaha pratyaha asit nul pratyaha rupe aka iti shruyate. Ayam kartrarthakaha pratyaha. So, this pratyaya will indicate the karta of action. Pathaka, lekhaka, nayaka, karaka, ityadayaha. Kridanta shabdaha bhavanti atra vriddhihi bhavitum arhati. So ni nayanam nayaniyam nayakaha. So similarly karanam karaniyam karakaha, pathanam pathaniyam pathakaha. So for iur at the end or for akara before the ending letter, you have vriddhi instead of guna. Okay. So for if there is e ur as the penultimate letter before the last letter, then you have guna like likh lekhakaha, kup kopakaha, nrit nartakaha. So we have both vriddhi and guna operating. We should understand and remember where to apply which one. Trishulingeshu rupani bhavanti akarantapullingaha, akarantastrilingaha, akarantaha napumsakalingaha. So pathakaha pathika pathakam, nayakaha nayika nayakam, ityevam rupani bhavanti. Karma padam atrapi shashti vibhaktau bhavati. There is no separate kartrapada because this itself is the kartrapada. It indicates the karta. The karma will be in shashti. Kathayaha lekhakaha, ghatasya karakaha, ityevam karma padam shashti vibhaktau bhavati. Chaturthaha pratyaha tumun pratyaha, tum iti prayoge shruyate. Ayamapi bhavarthakaha pratyaha, kriyartham kriyam bodhayati. So it indicates an action which is meant for another action. Okay, so the purpose of an action is indicated by tumun. Okay, yatha patitum, lekhitum, netum, kartum, ityadayaha, kridanta shabdaha. So atra idagamasya vishaye gyatavyam. So as soon as we come to tumun, we have to think of the it, because it is a pratyaya beginning with takara. So it can get it. Set dhatunam nityam idagamaha bhavati, anit dhatunam idagamaha na bhavati, vet dhatunam vikalpena idagamaha bhavati. Ataha idagamaha kutra bhavati iti gyatavyam, gunaha bhavati. So lekhitum, kartum, netum ityadishu gunaha bhavati. Hal sandhihi, because it is a pratyaya beginning with a consonant, if the dhatu is also ending in a consonant, there can be sandhi. Yatha pachitum becomes paktum, dahutum becomes dagdhum, ityevam hal sandhihi bhavati. Ataha idagamasya vishaye, gunasya vishaye, sandhescha vishaye, nyatavyam bhavati. Tumunnantam padam avyayam bhavati. So it is a single form with no variations. Sarvada avyayameva bhavati. Then, karma padam dvitiya vibhakto. The tumun construction is very similar to the tinganta construction. Okay, so in kartari prayoga, say Ramaha patham pathati, Ramaha patham pathitum gachati. So similar to it, kartrapadam prathama vibhakto, karma padam dvitiya vibhakto. The normal tinganta construction will also apply for tumun. Okay, so like in kartari prayoga. Panchamaha pratyayaha, tavyat athava tavya. Ayamapi karmarthakaha pratyayaha. So in meaning, tavya is synonymous to aniyar. So aniyar pratyayasya yadrishaha arthaha yadrishaha prayogaha tadrishaha eva tavyat pratyayasyapi bhavati. Okay, so in meaning it is completely similar to aniyar. So karmarthakaha vidhihi prarthana arhata shaktihi ityadayaha arthaha jnayante. Patitavya, lekhitavya, gantavya, smartavya, ityadini, kridanta rupani bhavanti. So the rupas of tavya are completely similar to tumun. So the meaning and usage is similar to aniyar, whereas the forms, deriving the forms from the dhatu is completely the same as tumun. Okay. So idagamaha gunaha halsandhihi ityete amshaha jnatavyaha trishulingeshu rupani bhavanti akaranta pullingaha akaranta strilingaha akarantaha napumsakalingaha patitavyaha patitavya patitavyam smartavyaha smartavya smartavyam idamapi karmapadasya visheshanam bhavati pita smartavyaha mata smartavya, mitram smartavyam ityevam karma padasya lingam vachanam vibhaktincha ashritya asyapi linga vibhakti vachanani bhavanti. So samanya prayoge punah atrapi karma padam prathama vibhaktau bhavati, kartrapadam tritiya vibhaktau athava shashti vibhaktau bhavati. Okay. Maya patha patitavyaha athava mama patha patitavyaha. So patha iti prathama vibhaktau karma padam, kartrapadam tritiya vibhaktau athava shashti vibhaktau bhavati. Shashtaha pratyayaha trich pratyayaha ayam kartrarthakah pratyayah. So here again, the meaning of trich is synonymous to the meaning of nul. Nul and trich both indicate the karta. So the meanings are the same. So pathita, lekhita, neta, karta, ityevam rupani bhavanti. Asyapi rupani, tumuna, tulyani. So the forms are again the same as tumun. You have idagama, we have guna, and we have the hal sandhi. Okay. Kintu subanta rupe visheshaha, idam, ayam shabdaha, rikarantaha bhavati pullinge, strilinge ikarantaha, punaha napumsakalinge rikarantaha. So karta kartarau kartaraha, kartru shabdaha. Karta kartarau kartaraha, iti pullinge. Kartru kartrini kartrini, iti napumsakalinge. Ubhayatra rikarantam. Strilinge tu ikarantam bhavati. Kartri, kartriyau, kartriyaha. Netri, netriyau, netriyaha. Ityevam. Achyapi karmapadam shashti vibhaktau bhavati. Deshasya neta, odanasya pakta. Ityadi udaharanan. Saptamaha pratyayaha. Ktva iti pratyayaha. Rupe. Tva iti shruyate, bhavarthakaha pratyayaha, samanakartrutve sati, purvakalika kriya, ktva pratyayena jnayate. Okay? So the earlier kriya, so when the same person is performing a series of actions one after the other, the earlier kriyas are represented by tva. Pathitva, likhitva, lekhitva. Gatva, kritva, ityadini rupani bhavanti. Atra guna nishedha, because kritva is kit. For anit dhatus, there is guna nishedha, whereas for set dhatus, in some cases there is no guna nishedha, that is we get compulsory guna, and in some cases we get an optional guna, like in likhitva, lekhitva. So we have to know and understand the rules for guna. Hal sandhi. Because it is tva, you will have the same kind of sandhi. So, dah becomes dagdha, pacha becomes paktva, so on. Samprasaranam bhavati. Some of the dhatus get samprasarana. Yatha vach becomes uktva. Grah becomes grihitva. Ityadi. Idagamaha api bhavati. Set dhatu nam idagamaha bhavati. Tatrapi visheshaha jnatavyaha. Idam avyayam. So, tumun, ktva, lyap and namul. They are the four kridanta avyayas. Okay. So, idam avyayam ekameva rupam bhavati bhedahanasti. Karma padam dvitiya vibhaktau, kartra padam prathama vibhaktau. So, the normal tinganta construction. Ramaha karyam karoti. Ramaha karyam kritva bhojanam karoti. So on. So, the same construction as Tinganta. Ashtamaha pratyayaha asti, lyap iti pratyayaha, upasarga sahitebhyaha dhatubhyaha, ktva pratyayasya sthane lyap pratyayaha bhavati, arthaha samanaha. So, the same as tva, the earlier action among a series of actions is indicated by lyap. Prapathya, vilikhya, agatya, vidhrutya, ityevam rupani bhavanti. Lyapi gunaha na bhavati, hal sandhihi na bhavati, idagamaha na bhavati. Okay. So there are some karyas which happen like samprasarana, tugagama, etc. So which have to be known. Idamapi avyayam bhavati. Tinganta prakraya tinganta nam yatha prayogaha tathaiva prayogaha karma padam dvitiya vibhaktau kartra padam prathama vibhaktau bhavati ramaha katham vilikati ramaha katham vilikhya pathati ityevam prayogaha. Okay, so I have studied 8 pratyayas. We will see the sentences for them. Se balaha katham pathati ityasti. So balaha kathayaha pathanam karoti. So सो ल्युट् प्रत्ययः पठनम् कर्मपदम् इदानीं किं षष्ठी विभक्तौ अस्ति कथायाः पठनम् सो बालः कथायाः पठनं करोति अनियर् बालेन कथा पठनीया नुल् बालः कथायाः पाठकः तुमुन् बालः कथां पठितुं पुस्तकं स्वीकरोति तव्य बालेन कथा पठितव्या तृच् बालः कथायाः पठिता क्त्वा बालः कथां पठित्वा शालां गच्छति ल्यप् बालः कथां प्रपठ्य निद्राति सो एवं पठनं पठनीया पाठकः पठितुं पठितव्या पठिता पठित्वा प्रपठ्य इति रूपाणि भवन्ति वाक्येषु कथं प्रयोगः कर्तव्यः इति ज्ञातम् अत्र प्रश्नः आर्क्त्वा एण्ड् ल्यप् प्रत्ययस् इण्टर्चेञ्जबल् इफ् यु आड् द उपसर्ग टु द सेम् धातु यु केन् यूस् ल्यप् फार् इफ् इट् इस् ओन्ली अ धातु यु केन् यूस् क्त्वा मीनिङ्ग् वित् उपसर्ग कुड् बि सिमिलर् लैक् पठित्वा एण्ड् प्रपठ्य आर् द सेम् but you have to have the upasarga for lyap okay atra kinchir abhyasam kurmaha because this is the major point I mean having learnt so many pratyayas the most important thing is to be able to use them in sentences right I mean knowing all that is no point if you are not able to create correct sentences using the kridantas okay so this is the pattern So, I'll give a different tinganta. So, let's change the tinganta. Say, aham padyani likhami. Ityasti. So, asya katham vakyani bhavanti. Okay, using the same pratyayas, you have to replace these sentences. So, the sentences are also there for as a pattern. So, you can look at them and create sentences. Okay. Ye vaktum ichhanti kripaya hastan uttolayantu. एकैकशः प्रयत्नं कुर्मः पद्मनाभन् महोदय
बालः कथायाः पद्यानि लिखति
नो नो नाट् कथायाः सी यु हव् टु यूस् अहं पद्यानि लिखामि अहं
पद्यानि पद्यानि लिखामि लेखनं करोमि
सम्यक् अहं पद्यानां लेखनं करोमि
अहं पद्यानि पद्यानां कथा पद्यानि लेखनीयानि लेखनीयानि
सम्यक् मया पद्यानि लेखनीयानि मया पद्यानि लेखनीयानि
अहं पद्यानां पाठकः
लेखकः
लेखकः
अहं पद्यानां लेखकः सो इफ् इट् इस् स्त्रीलिङ्ग लेखिका
अहं पद्यानि लेखितुं पुस्तकं स्वीकरोमि
You can use that. You can use something else also. I mean, that will fit here, so you can use that. Aham padyani lekhitum prayatnam karomi. Aham padyani lekhitum icchami. Aham padyani lekhitum na shaknomi. Anything. I mean, that is for me. But yeah, you can use anything. Okay, next. कर्तव्या
मया पद्यानि लेखितव्यानि
सम्यक् मया पद्यानि लेखितव्यानि
अहम् पद्यानां लेखिता
अहं पद्यानां लेखिता अथवा अहं पद्यानां लेखित्री क्षम्यताम् नेक्स्ट् क्त्वा
अहं पद्यानि लेखित्वा शालां गच्छामि
अहं पद्यानि लिखित्वा लेखित्वा रूपद्वयमस्ति उभयं साधु प्रकाशयामि सो ऐ विल् रैट् पोयम्स् एण्ड् पब्लिश् देम् सो लिखित्वा लेखित्वा
पद्यानि मीन्स् पोयम्स् ओके अहं पद्यानि विलिख्य तुष्यामि
तुष्यामि सम्यक् सो अहं पद्यानि विलिख्य तुष्यामि अहं पद्यानि विलिख्य प्रेषयामि एनिथिङ्ग् इस् फैन् सो ऐ विल् रिजाय्स् रैटिङ्ग् पोयम्स् आर् ऐ विल् रैट् एण्ड् सेण्ड् एण्ड् सो आन् ओके सो अहं पद्यानां लेखनं करोमि मया पद्यानि लेखनीयानि अहं पद्यानां लेखकः अहं पद्यानि लेखितुं प्रयत्नं करोमि मया पद्यानि लेखितव्यानि अहं पद्यानां लेखिता अहं पद्यानि लिखित्वा प्रकाशयामि अहं पद्यानि विलिख्य प्रेषयामि सो सम्यक् धन्यवादाः नेक्स्ट् वन् ते अश्वाः धावन्ति ओके सो अगेन् द सिमिलर् सेण्टेन्सेस् वित् देम् ते अश्वाः धावन्ति दोस् हार्सस् रन् राजलक्ष्मी मनि यू हेव् टु अन्म्यूट्
अश्वाः धावनं कुर्वन्ति
ते अश्वाः धावनं कुर्वन्ति
तैः अश्वाः
तैः
धावनं अश्वाः तैः अश्वान्
धावनीयम् सो धावति इस् एन् अकर्मक सो इफ् इट् इस् इफ् देर् इस् नो कर्मपद इट् इस् नपुंसकलिङ्ग तैः अश्वैः धावनीयम् सो दोस् हार्सस् मस्ट् रन् इत्यर्थः ते इस् अ विशेषण टु अश्व सो तैः अश्वैः धावनीयम् धावकाः ते अश्वाः धावकाः
अश्वाः धावितुं प्रयत्नं कुर्वन्ति
ते अश्वाः धावितुं प्रयत्नं कुर्वन्ति ते अश्वाः धावितुं समर्थाः सो दे आर् केपबल् आफ् रनिङ्ग् नेक्स्ट्
तैः अश्वैः धावितव्याः
तैः अश्वैः
धावितव्यम्
धावितव्यम् करेक्ट् तैः अश्वैः धावितव्यम् इफ् देर् इस् नो कर्मपद इट् इस् नपुंसकलिङ्ग एकवचन ओन्लि
तैः अश्वैः
Shigram Dhavitavyam. Ashvaha Shigram Dhavanti. So if you have it, it will not change. Dhavana is an intransitive verb, right? So Kim Dhavanti iti nasti. Ataha Dhavitavyam.
Dhavitavyam. Ashvaha
Dhavitaraha. Dhavita, Dhavitarau, Dhavitaraha.
Ashvaha Dhavitaraha. Ashvaha Dhavitva Agachanti.
Agachanti. Samyak. So te Ashvaha Dhavitva Gamyam Prapnavanti. Gamya is the target. So they reach their destination. So Agachanti is fine.
Have what Upasarga we can use?
Pra.
Te Ashvaha Pradhavya Tishthati.
Tishthanti. So te Ashvaha Pradhavya Antarhitaha. So Antarhita is disappeared. So they ran and disappeared. So they Ashvaha Pradhavya Tishthanti. They run and they stand. Samyak. So Ashvaha Dhavanam Kurvanti. Ashvaihi Dhavaniyam. Ashvaha Dhavakaha. Ashvaha Dhavitum Samarthaha. Ashvaihi Dhavitavyam. Ashvaha Dhavitaraha. Ashvaha Dhavitva Gamyam Prapnuvanti. Ashvaha Pradhavya Antarhitaha. Okay. So, Dhanyavadaha. The next one. Balika Pujam Karoti. Iti Vakyam. Sudha.
Namaste. Balika Devatayaha Pujanam Karoti.
But okay. Here I am looking for form of the Krudhata.
Okay. Balika Pujayaha Karanam Ichati.
So
Balikaya. Balikaya Puja Karaniya.
Samyak. Balikaya Puja Karaniya.
Balika Devasya.
No. Pujayaha.
Puja
itself
puja.
Is the karma.
Pujayaha. Karika.
Karika. Balika Pujayaha Karika.
Balika Pujam Kartum Ichati.
Balika Pujam Kartum Ichati. Pujam Kartum Mandiram Gachati.
Balikaya Puja Kartavya.
Kartavya. Balikaya Puja Kartavya.
Balika Pujayaha Karta. Kartri.
Kartri. Balika Pujayaha Kartri.
Balika Pujam Kartum Mandiram Gachati.
Ktva.
Balika Pujam Kritva Griham Gachati.
Balika Pujam Kritva Griham Gachati. Pujam Kritva Prasadam Svikaroti.
Balika Pujam Sankritya Santosham Anubhavati.
Samyak. Puja Sankritya Santosham Anubhavati. Prakritya Sankritya. Anything is okay in the same sense. So, Dhanyavadaha. Pujayaha Karanam Ichati. Balikaya Puja Karaniya. Balika Pujayaha Karika. Balika Pujam Kartum Mandiram Gachati. Balikaya Puja Kartavya. Balika Pujayaha Kartri. Balika Pujam कृत्वा प्रसादं स्वीकरोति बालिका पूजां प्रकृत्य पाठशालां गच्छति नेक्स्ट रामः राक्षसान् हन्ति नन्दकुमार महोदय
नमस्ते सुप्रभातम् रामः राक्षसानां हननं राक्षसानां हननं करोति
करोति रामः राक्षसानां हननं करोति
रामेण राक्षसाः हननीया
हननी
हननीयाः
हननीयाः सम्यक् रामेण राक्षसाः हननीयाः
रामः राक्षसयोः राक्षसानां हारकः
घातकः हारकः इस् हृ धातोः हन् धातोः घातकः रामः राक्षसानां घातकः
रामः राक्षसानां हननं
नो
राक्षसान् हन्तुम् इच्छति
इच्छति रामः राक्षसान् हन्तुम् इच्छति रामः राक्षसान् हन्तुं बाणप्रयोगं करोति
रामेण राक्षसान्
राक्षसाः हन्तव्याः रामेण राक्षसाः हन्तव्याः
रामः राक्षसयोः हर्ता
हन्
हनिता
हन्ता राक्षसानां हन्ता रामः राक्षसानां हन्ता
रामः राक्षसानां राक्षसान् रामः राक्षसान् हत्वा वनं गच्छति
हत्वा वनं गच्छति रामः राक्षसान् हत्वा सज्जनान् रक्षति
रामः राक्षसान् प्रहार्य
प्रहत्य और् निहत्य तुष्यति रामः राक्षसान् निहत्य तुष्यति रामः राक्षसान् निहत्य अयोध्यां प्रत्यागच्छति सम्यक् धन्यवादः सो अग्रिमं वाक्यमस्ति वयं देवान् नमामः Those who have not answered so far. Ramapriya.
Shruyati Klavini.
Shruyati.
Vayam Devan Namah. Vayam Devanam Namanam Kurmaha.
वयं देवानां नमनं कुर्मः
अस्माभिः देवान् इति नमनीयाः
अस्माभिः
देवाः नमनीयाः
सम्यक् अस्माभिः देवाः नमनीयाः
वयं देवानां नामकः अस्ति नामकः
वयं देवानां
नामकः
वयं
वयं देवा
बहुवचनं वयं देवानां
नामकाः
नामकाः
वयं देव देवा देवान् नमितुम्
अनित्य धातुः
क्षम्यतां नन्तुम् आलयं गच्छामः
वयं देवान् नन्तुम् आलयं गच्छामः
अस्माभिः देवाः नन्तव्याः
अस्माभिः देवाः नन्तव्याः
वयं देवानां नन्त
वयं देवानां
नन्तारः
नन्तारः वयं देवानां नन्तारः
वयं देवान् देवान् नत्वा गृहं प्रत्यागच्छामि प्रत्यागच्छामः
वयं देवान् नत्वा गृहं प्रत्यागच्छामः देवान् नत्वा वरान् प्राप्नुमः
वयं देवान् विनम्य विनम्य संतोषं प्राप्नुमः
वयं देवान् अत्र रूपद्वयं भवति प्रणम्य प्रणत्य एवं विनम्य विनत्य रूपद्वयं भवति पुष्पाणि समर्पयामः सम्यक् सो यु हाव् नमनं नमनीयं नामकः नन्तुं नन्तव्यं नन्ता नत्वा प्रणम्य प्रणत्य ओके सो एनीबडी एल्स वांट्स टू ट्राई ओके सो गोपाः क्षीरं दुहन्ति मैथिली
गोपाः क्षीरस्य
गोपाः क्षीरस्य दोहनं कुर्वन्ति क्षीरं क्षीरं दोहनी
दोहनीयम्
गोपैः क्षीरं दोहनीयम्
गोपाः
दोहकाः गोपाः क्षीरस्य दोहकाः
गोपाः क्षीरं पोषितुं
दोग्धुं
बहिः गच्छन्ति
क्षीरं दोग्धुं गोष्ठं गच्छन्ति गोष्ठ इस् अ कौशज् दोग्धव्यं गोपैः क्षीरं दोग्धव्यम्
गोपाः क्षीरस्य दोग्धारः
गोपाः क्षीरस्य दोग्धारः.
गोपाः क्षीरं दुग्ध्वा क्रीडितुं गच्छन्ति. क्रीडितुं गच्छन्ति.
गोपाः क्षीरं दुग्ध्वा क्रीडितुं गच्छन्ति. गोपाः क्षीरं दुग्ध्वा सर्वेभ्यः वितरन्ति.
गोपाः क्षीरं
प्र इति
प्रदुष्य कृष्णं
कृष्णाय ददति. गोपाः क्षीरं प्रदुह्य कृष्णाय ददति. क्षीरं प्रदुह्य पिबन्ति. सम्यक्. धन्यवादः. माता अन्नं पचति.
मीनाक्षी
न श्रूयते. कैनॉट हियर यू. इट्स वेरी वेरी लो.
Can you hear me? माता अन्नस्य पाचनं करोति.
पचनं करोति. माता अन्नस्य पचनं करोति.
मात्रा अन्नं पचनीयम्.
सम्यक्. मात्रा अन्नं पचनीयम्.
माता अन्नस्य
पाचिका. माता अन्नस्य पाचिका.
माता अन्नं पक्तुं गृहम् आगच्छति.
माता अन्नं पक्तुं गृहम् आगच्छति. पाकगृहं गच्छति.
मात्रा अन्नं पक्तव्यम्.
मात्रा अन्नं पक्तव्यम्.
माता अन्नस्य पक्त्री.
माता अन्नस्य पक्त्री.
माता अन्नं पक्त्वा बालिकां ददाति.
बालिकायै ददाति. अन्नं पक्त्वा परिवेशयति. बालिकायै ददाति. सो गिव्स् इट् टु द गर्ल् और् सर्व्स् इट्.
माता अन्नं प्रपच्य निवेदयति.
अन्नं प्रपच्य. अन्नं सम्पच्य शिशुं भोजयति. अन्नं प्रपच्य निवेदयति. सम्यक्.
I have a doubt.
Yes. Sorry. Tell me.
In the exercise,
Kuddha
Dhatu. Tva pratyaya.
Tva.
Then adding what will be the root?
Krutva. Krudva.
Krudva. Krudva.
Yes. Krudva. Krudva.
What is the meaning? How will we use it in the sentence?
Ramaha krudva ravanam or rakshasam praharati. So being angry, it's artha.
Getting angry?
Yes.
Okay.
Yeah.
Then,
anything else?
Jayati.
Mm.
Jai, opposite is Parajay.
Mm.
Jitva
Parajitya. Jayati and Parajayate, when you are using it, it means the same. Ityukte Jayati is to win, whereas Parajayate is to defeat somebody.
Defeat.
So
Vijitya can be.
Parajitya also means the same. Jitva Parajitya. Parajitya means defeating somebody. Jitva means winning. So it is almost the same.
Okay. Thank you.
Venkateshwaran Mahalaya. You have to unmute yourself.
Samadam. Nadya Shatikam Krinanti. Nadyaha. Shatikanam.
Shatika Yaha. I mean, if it is Bahuvachana, you can use, otherwise Ekavachana is okay.
Shatika. Krinam Karoti.
Krayanam Kurvanti.
Krayanam Kurvanti.
Right. Naryaha Shatikayaha Krayanam Kurvanti.
Baba, that is Naryaha. Naribhihi.
Naribhihi.
Naribhihi. Shatika. Shatika. Krayaniya.
Krayaniya. Samyak. Naribhihi. Shatika. Krayaniya.
Nadyaha. Nadika. Shatika. Shatikayaha. Krayan. Pataka. That is.
Krayakaha. Krayakaha. Krayika. So, Naryaha.
Naryaha. Shatika. Shatikayaha. Karika. Karikaha.
Kraikaha. Nadyaha Shatikayaha Kraikaha.
Nadyaha. Nadyaha. Shatik. Nadya. Shatik. Shatikaya. Shatikaha.
Shatikam.
Kretum. Kretum. Aparnam. Aparnam. Gacchanti.
Gacchanti. Naryaha. Shatikam kretum. Aparnam gacchanti.
Narikabhihi.
Naribhihi.
Naribhihi. Shatika. Kretavya.
Kretavya. नारीभिः शाटिका क्रेतव्या.
नारी नार्यः शाटिकायाः क्रेता
क्रेति क्रेत्री क्रेत्र्यः क्रेता क्रेत्री क्रेत्र्यः नार्यः शाटिकायाः क्रेत्र्यः.
नार्यः शाटिका शाटिकां शाटिकां क्रीत्वा शाटिकां खरीत्वा अगेन् आपणं गच्छति
खरीत्वा आपणं गच्छन्ति ओके अन्यम् आपणं गच्छेत् अथवा गृहमागच्छन्ति शाटिकां क्रीत्वा अन्यत्र गच्छन्ति अथवा गृहमागच्छन्ति.
न्यायः शाटिकां प्रकृत्य
प्रक्रिय
गृहम् आगच्छन्ति.
शाटिकां प्रक्रिय परिक्रिय धरन्ति प्रक्रिय गृहमागच्छन्ति. सम्यक् उत्तमं धन्यवादाः. सो क्रयणं क्रयणीयं क्रायकः क्रेतुं क्रेतव्यं क्रेता क्रीत्वा परिक्रिय इति भवति. ओके गिरिजा महोदय
सुप्रभातम्. जनाः फलरसं पिबन्ति. जनाः फलरसानां फलरसस्य पिबनं करोति पानं कुर्वन्तः
कुर्वन्ति. सम्यक् जनाः फलरसस्य पानं कुर्वन्ति.
जनैः फलरसं पानीयं
फलरसः पुल्लिङ्गशब्दः
फलरसः पानीयः
जनैः फलरसः पानीयः.
जनाः फलरसस्य पानकः
पायकाः बहुवचनं
पायकाः
जनाः फलरसस्य पायकाः.
जनाः फलरसं पातुम् इच्छन्ति
इच्छन्ति जनाः फलरसं पातुम् इच्छन्ति.
जनैः फलरसः पानीयः
तव्य
पातितव्यः पातव्यः
जनैः फलरसः पातव्यः.
जनाः फलरसस्य
पातारः
जनाः फलरसं पीत्वा प्रसन्नाः
जनाः फलरसं पीत्वा प्रसन्नाः फलरसं पीत्वा भोजनं कुर्वन्ति.
जनाः फलरसं प्रपीत्य
पादातुः पाय इत्येव भवति
प्रपाय पाठशाला गृहं गच्छन्ति.
जनाः फलरसं
निपाय
प्रपाय निपाय गृहं गच्छन्ति निपाय सन्तुष्टाः. सम्यक् उत्तमं
धन्यवादः.
So the last sentence, anybody? We have spent quite some time on this, but I feel this is a very, very important exercise, because I mean, more than learning, the theory is fine. We do need the theory, but practically using the sentences is very, very important. I actually thought of, you know, forcing everybody to do this exercise, as in create, just do some 40 sentences and give it. But yeah, I then decided against it because of time, basically. It takes some time. But I do recommend that all of you do this exercise. You can also, you know, I mean, create your own simple sentences and try to do these sentences for the different dhatus. It is very, very useful in, you know, ingraining these kridantas into the mind so that you can use them whenever you want to. Okay, just, I mean, studying during class, and then you'll forget it. You'll not realize when we are speaking. That is what we need. So, for the sentences to come out correctly when we speak, we need practice. Okay. So, for practice, you know, you have to keep using them in sentences. Okay. So, such exercises where you are practicing both the form and the sentence, which is more important. So, it's very important. So, please do practice these. I'll also give some sentences for the exercise. You don't have to write it. Just an oral practice will be very, very helpful. Okay. So that you will be conscious of, okay, say if it is katha patitavya, so, or say pataha patitavya. So immediately if you are able to change it, your sentences will be correct. Okay. So the last one, Himanshu Mahodaya.
Dhanyavadaha. Tvam teeth kshetrani gachasi. Tvam teeth kshetranam gamanam karoshi.
Tvam teeth kshetranam gamanam karoshi.
Tvaya teeth kshetrani gantavyani. Gantavya. Gamaniya.
Gamani?
Yani.
Yani. Tvaya तीर्थक्षेत्राणि गमनीयानि.
यानि. त्वं तीर्थक्षेत्राणां गामकः.
गामकः. सम्यक्.
त्वं तीर्थक्षेत्राणि गन्तुं किं करोति?
किम्
करोति?
त्वं
करोषि.
त्वं तीर्थक्षेत्राणि गन्तुं किं करोषि? इच्छसि.
त्वया कथा त्वया तीर्थक्षेत्राणि गन्तव्यानि.
सम्यक्. त्वया तीर्थक्षेत्राणि गन्तव्यानि.
त्वं तीर्थ क्षेत्राणां गन्ता.
गन्ता. सम्यक्.
त्वं तीर्थ क्षेत्राणि गत्वा स्नानं करोषि.
सम्यक्. तीर्थ क्षेत्राणि गत्वा स्नानं करोषि. पुण्यं प्राप्नोषि.
त्वं तीर्थ क्षेत्रात् आगम्य आनन्दं करोषि.
आनन्दं अनुभवसि. त्वं तीर्थक्षेत्रात् आगत्य इज आल्सो ओके. फ्रॉम और कमिंग टू तीर्थक्षेत्रस् इज आल्सो ओके. सो तीर्थक्षेत्राणि आगत्य आगम्य रूपद्वयं संतोषम अनुभवसी. सम्यक्.
धन्यवाद.
धन्यवाद. सो आई डिड ओनली 10 सेंटेंसेस. सो बट प्लीज डू मोर. देर आर अ फ्यू क्वेश्चंस हियर. इज त्रिच देयर फॉर ऑल धातुस आर ऑल त्रिच फॉर्म्स ऋकारांतस? यस, त्रिच कैन बी एडेड फॉर ऑल धातुस एंड इट इज ऑल ऋकारांत. Yeah. So you will have netra, jetra, dhartra, kartra, etc. So karta, kartaro, kartaraha. So there's a question, can we write offline and send it to you? Yes, if you want to try it out for a few dhatus, if you want to get it corrected, you can do that. You can just email it to me. I'll reply back in a few days. Okay. You'll have to give me at least a week. But I'll definitely look to it and get back to you. What would be the translation of Tvam Tirthakshetram Ganta? Tirthakshetranam Ganta. You are the one who goes to Tirthakshetras. Tvam Ganta means you are the one who goes. And the object is the Tirtha Kshetra. So you are the one who goes to Tirtha Kshetra. Okay. So the Padhatu, should it be Prapiya or Prapaya? Iti Prashnaha. Prapaya, there is no Itva for Lyap. Okay. So Nipiya is used in some cases which most of the grammarians do not agree with it. So it should be Prapaya. Okay. Any other question? No? Okay. So, I intended to start the next pratyaya today. But since we are at the end of our time, we will start Kthavatu in the next class. So, we have done 8 pratyayas in detail. So, please practice using them and the form. So, we will start with Kthavatu, a very, very popular pratyaya. So, in the next class. Rangarajan Mahode, Prashna Hastiva. You have to unmute yourself. Do you have a question? I can't hear. There is a lot of disturbance. Tvam Tirtha Kshetrani Gantum Ichasi. Dvitiya Vibhakti. It is Dvitiya Vibhakti. So if it is a pullinga word, Tvam Nagaram Gantum Ichasi or Tvam Mandiram Gantum Ichasi. So Dvitiya Vibhakti. Is it Tvam Karochi or Karoshi? Karoshi. Tvam is always the Madhyama Purusha form is Karoshi. Okay. Sure. Okay. Yes. Girija. Okay. Prashna Hastiva.
No, Bhaini.
Okay. Fine. So, any other questions? So we will stop here today and we'll start with Kthavatu in the next class. Gurureva Gatir Gurumeva Bhaje Gurunaiva Sahasmi Namo Gurave Na Guruh Paramam Shishurasmi Gurur Matirasmi Gurau Mamapahi Guru. Sarvebhyaha Navaratrotsavasya Shubhashayaha. Dhanyavadaha.